घनकर्षिः निश्चित्वाय त्रिछन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्कुशचालिनम् रथं च वरदं हस्ते विभ्राणं वृषकत्वजम् रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सपूजितं भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् आविर्भूतं च शिष्यादो प्रकृते पुरुषात्परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः भ्रमतपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः शान्ति शान्ति शान्तिः
शुक्लं वरिधरं विष्णुं सशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नो
Hey, Thank you. Thank you.
नः सर्वः प्रचोदयात्। भास्कराय विद्महे साई देवाय धीमहि तन्नः सूर्यः प्रचोदयात्। प्रेमात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नः सत्यः प्रचोदयात्।
नमस्ते गुरु महाराज सद्गुरु श्री साई महाराज शरणं शरणं साई च शास्त्रचरणं सर्वेश ओम शांति शांति शांति। ओम
त्वमेव माता च पिता त्वमेव
सद्गुरु साईनाथ महाराज की, बोलो भगवान श्री सत्य साई बाबा जी की।
समस्त लोका सुखिनो भवन्तु, समस्त लोका सुखिनो भवन्तु, समस्त लोका सुखिनो भवन्तु।
Thank you.
Hari Om. That's